उदप्रतोनमजो रक्षमाणा वावदतो अभ्रयस्येव घोषाः ये प्रजोदार्मजो मदन्तो बृहस्पतिमभ्या अर्का अनावन् सङ्गोभिराङ्गिरसो नक्षमाणो भग इवेदरे जमणन्निनाय जने मित्रो न दम्पते अनग्नि बृहस्पते वाजजाशोऽङ्ग्रिवाजौ सा ध्वर्या अतिधिनेरिशिरास्पार्हा सुवर्णा अनवद्यरूपाः बृहस्पतिः पर्वतेभ्यो वितोर्या निर्गा ओपेजवमिव स्थिविभ्यः आपृषा जन्मधनरथस्य जोनिमवक्षिपन्नर्क उल्कामिमद्योः बृहस्पतिरुद्धरन्नश्वनो गा भौम्या उत्ने भवित्वजम् बिभेद अपज्योतिषातम अन्तरिक्षादुद्नश्रीपालमिव वात आजत बृहस्पतिरनुमृष्या बलस्याभ्रमिव वात आचक्र आगाः यदा बलस्य बीजतो च सम्भेत् बृहस्पतिरग्नितपोभिरर्कैः तद्भिर्न जिह्वा परिविष्टमाददाभिर्निधेऽङ्ग्रगृणो दुःसृजाणाम् बृहस्पतिरवदहित्यदा साम्नामस्वरेणाम् सदने गुहाजत आण्डेव भित्त्वा शकुनस्य गर्भमदुःसृजाः पर्वतस्यत्मनाजत अश्नापि नद्धम् मधुपर्यपश्यन्मत्स्यन्न तेन उदनिक्षयन्तम् निष्टज्य भारतमसन्न वृक्षात् बृहस्पतिर्विरपेण विकृत्य सोषापविन्दत्स स्वा अस्वो अग्निम् सो अर्केण विबबाधेतमांसे बृहस्पतिर्गो वपशो बलस्य निर्मज्जानन्न पर्वणो जभार हिमेव पर्णामुषितावनानि बृहस्पतिनागृपयद्बलोकाः अनानुकृत्यमपुनश्चकारजात्सोर्जामासामिथ उच्चरातः अभिश्यापन्नकृशनेभिरश्वन्नक्षत्रेभिः पितरोद्यामपिंशन् रात्र्यान्तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिम् विदद्गाः इदमकर्म नमो अभ्रजा जजः पूर्वेरन्वानो न वेति बृहस्पतिः स हि गोभिः स अश्वैः स वीरेभिः स नभिर्नोमयोधात्